ॐ श्री परमात्मने नमः। अथ षोडशोऽध्यायः दैवासुरसम्पत्पिपाकयोगः। श्रीभगवानुवाच, अप्यं सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः ध्यानं दमस्तयज्ञश्च स्वाजायस्तपार्जवम् अहिंसा सत्यमक्रोधः त्यागश्चान्तिरपेक्षणं तया भूतेषु लोलुप्त्वं माधवं रीलचापलं तेजःक्षमादिशिशोचम् अद्रोहोनातिमानिता भवन्ति सम्पदं देवे अभिजातस्य भारत दम्भो दर्पोऽभिमानश्च क्रोधः पारुषमेव च अज्ञानं चापि च तस्य पट्टसम्पदमासुनि दैवी सम्पत्तिमोक्षाय निबन्धाय श्रीमत मासु सम्पदं देवी अभिजातोऽसि पाण्डव दौ भूतसर्गलोकेऽस्मिन् दैवाश्र एव च दैवो विसृशः क्रोक्तः आश्रं पाठविष्णु प्रवृत्तं च निवृत्तं च जनानविदुरासनाः नशोचं नापि चाचारः असत्यं तेषु विद्यते असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् अपरस्परसम्भूतं किमन्यत् कामः हितुकम् एतां विष्णुमवस्तभ्य नष्टात्मानोर्प्रभुतयः प्रभवन्ति कृकर्माणः शया जगदोहिताः काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहार्गृहीत्वा सद्ग्राहान् प्रवर्तन् तेषु विद्यते तीव्रताः कामकचिन्तामपरिमेयां च प्रलयां तामुपाश्रिताः कामोपभोगपरमा एतावदिति निश्चिताः आशापाश्रितैर्बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थम् अन्यायेनाथ संशयान् इदमत्यमया लब्धम् इमं प्राप्स्ये पदोरुतम् इदमस्तीतमपि मे भविष्यति पुनर्धनम् असो मया हत शत्रुः हरिष्ये चापरानपि ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवांसुकी आद्यो विजनवानस्मि कोऽन्योऽस्ति सरसोमय यक्षे दास्यामि मूढिष्ये इत्यज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजानसमावृताः प्रसक्ता कामभोगेषु पतन्ति रटकेषु च आत्मसम्भाविताः सप्ताः धनमानमदान्विताः ईहन्ते त्यजन्ते नाम यज्ञस्ते दम्भेनाविधिपूर्वकम् अहंकारं बलं तपं कामक्रोधस्परायणाः मामात्मपरदेहेषु प्रतिसन्तोभ्यसूयकाः तानहं विशतः क्रूरान् संसारेषु न राजमान् शुपामिजस्रमशुनम् आसुरिष्वेव योनिषु आसुरम्योनि मापन्नाः मूढाजन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो याति परां गतं यशास्त्र कर्तृविदं नरकश्चेदं द्वारं नाशनमात्मनः कामक्रोधस्तथा लोभः तस्मात् एतत्त्रयं ते चेत् एतैर्विमुक्तः कौन्तेय तमोद्वारे त्रिभिर्नरः आचरत्यात्मनिश्रेयः ततो याति परां गतं यश्शास्त्रविनिमुसृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न परां गतं यश्शास्त्रविनिमुस्मात् शास्त्रं प्रमाणं ते कायाकाय व्यवस्थितं ज्ञात्वा शास्त्रप्रमाणं ज्ञात्वा शास्त्र विधानोक्तं कर्मकर्तुं हि अर्हसि ॐ तत्तिः श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमप्राप्तियोगो नाम षोडशोऽध्यायः।